शिवं तव सुखाय शिवतु संपूर्ण परिपूर्णता हि शिव न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर न वा प्रार्थयतं शिवं तव सुखाय शिवतु संपूर्ण परिपूर्णता हि शिव शिया गाढ हृदये गर्वयुक्तासम् आगतो नेन तदानाभूतम् हृदयं तु मे श्रावयत्स्पन्दयदयं सकल प्राणिभ्य शिलाभ्यश्च नित्यं शिला गाढ हृदये गर्वयुक्तासम् आगतो नेन तदानाभूतम् हृदयं तु मे श्रावयत्स्पन्दयदयं सकल प्राणिभ्य शिलाभ्यश्च नित्यं न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर न वा प्रार्थयतं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव तन्त्राणि शतद्वादशानि भेदयितुमिमं संसारपाशं चतुरोऽहं किन्तु तन्त्रजाले पतं न शक्नोम्यहं कर्तुं यत्किमपि मह्यं विविधानि तन्त्राणि शतद्वादशानि भेदयितुमिमं संसारपाशं चतुरोऽहं किन्तु तन्त्रजाले पतं शक्नोम्यहं कर्तुं यत्किमपि मह्यं न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर न वा प्रार्थयतं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव श्रुत्वा सर्वाणि मधुराणि वचनानि सर्वाणि महदर्शनानि ज्ञात्वा च सर्वाणि मधुचेतनानि नष्टोऽहं तस्य वैभवेन अनभूमयं नान्य अस्य समान श्रुत्वा सर्वाणि मधुराणि वचनानि दृष्ट्वा सर्वाणि महदर्शनानि ज्ञात्वा च सर्वाणि मधुचेतनानि नष्टोऽहं तस्य वैभवेन अनभूमयं नान्य अस्य समान न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर न वा प्रार्थयतं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव विश्वासं मा कुरु निश्चल शिवम् अस्य निश्चलत्वेन आकृष्टोऽहम् अयमेव मार्गम् इति अमन्येऽहम् अवगतो अधुना अयमेव अन्त्यम् विश्वासं मा कुरु निश्चल शिवम् अस्य निश्चलत्वेन आकृष्टोऽहम् अयमेव मार्गम् इति अमन्येऽहम् अवगतो अधुनायमेव अन्त्यं न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर न वा प्रार्थयतं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव न हि शिव स्नेह न तु शिव प्रेम नोऽयं दयावान करुणाकर प्रार्थयतं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव शिया गाढ हृदये गर्वयुक्तासम् आगतो नेन तदानाभूतम् हृदयं तु मे श्रावयत्स्पन्दयदयं सकल प्राणिभ्य शिलाभ्यश्च नित्यं शिला गाढ हृदये गर्वयुक्तासम् आगतो नेन तदानाभूतम् हृदयं तु मे श्रावयत्स्पन्दयदयं सकल प्राणिभ्य शिलाभ्यश्च नित्यं न हि शिवस्नेह न तु शिवप्रेम नोऽयं दयावान् करुणाकर न वा प्रार्थय तं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव तन्त्राणि शतद्वादशानि भेदयितुमिमं संसारपाशं चतुरोऽहं किन्तु तन्त्रजाले पतं न शक्नोम्यहं कर्तुं यत्किमपि मह्यं विविधानि तन्त्राणि शतद्वादशानि भेदयितुमिमं संसारपाशं चतुरोऽहं किन्तु तन्त्रजाले पतं न शक्नोम्यहं कर्तुं न हि शिवस्नेह न तु शिवप्रेम नोऽयं दयावान् करुणाकर न वा प्रार्थय तं शिवं तव सुखाय शिव तु सम्पूर्ण परिपूर्णता हि शिव श्रुत्वा सर्वाणि मधुराणि वचनानि दृष्ट्वा सर्वाणि महदर्शनानि सर्वाणि मधुचेतनानि नष्टोऽहं तस्य वैभवेन अनुभूयं नान्य अस्य समान श्रुत्वा सर्वाणि मधुराणि वचनानि दृष्ट्वा सर्वाणि महदर्शनानि ज्ञात्वा च सर्वाणि मधुचेतनानि नष्टोऽहं तस्य वैभवेन अनुभूयं नान्य शिवम् अस्य निश्चलत्वेन